सर्वधर्मान् परित्यज मामेकं शरणं व्रज अहं त्वां सर्वपापेभ्यो